एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। प्रतिनिधि सभायाः गतदिवसीयो उपवेशेन राष्ट्रपतिना ससन्देशम् प्रतिप्रेषितम् एतद् वैक्रमादम् नागरिकता विधेयकम् बहुमतेन पारितकृतम् वर्तते। सर्वकारेण पूर्ववदरूपेणैव अग्रे वर्धापितम् विधेयकमिदम् मतविभाजनस्य माध्यमेन बहुमतेन पारितकृतमस्ति। मतविभाजने विधेयकस्य पक्षे 35% विपक्षे च 60 व्यक्तानि आसन्। तत्पूर्वं विधेयकम् आश्रित्य बीते विमर्शने उत्थापितानां प्रश्नानां उत्तरणक्रमे गृहमन्त्री बालकृष्ण खाण नागरिकता विधेयकस्य सम्बन्धे राष्ट्रपतिना उत्थापितेषु विषयेषु दलानां मध्ये तत्कालं सहमति धरणस्य सम्भावनायाः अभावात् सर्वकारेण प्राक्तनावस्थायाम् एव विधेयकम् अग्रे वर्धापितमिति अवोचत। गृहमन्त्री खाण अभाषत शीर्ष नेतृणां मध्ये भूयो भूयो बीतैः वार्ता संवाद विमर्शनैः सहमतेर्निकटं प्राप्तानि प्रावधानानि संयोज्य विधेयकम् अग्रे वर्धापितम्। राष्ट्रपतितः प्राप्ते सन्देशे उत्थापितेषु विषयेषु दलानां मध्ये गभीर मतभेदश्च दृष्टो वर्तते। मन्त्री खाण अकथयत् संसदः राज्य व्यवस्था सुशासन समितौ 22 मासान् यावद् विमर्शनम् विहितम् सदपि सहमतेर्धरणस्य अभावात् सर्वकारेण 75+ वैक्रमाब्दम् विधेयकम् प्रति गृह जन्मनः आधारेण गृहीत नागरिकतयोः पित्रोः सन्ततेभ्यो नागरिकता प्रदानस्य उद्देश्येन नवीनं विधेयकम् अग्रे वर्धापितं वर्तते। तत्पूर्वं विमर्शने सहभागिनः प्रतिपक्षदलानां सांसदाः विधेयकं सहमतेः आधारेण पारितीकर्तुम् अभ्ययाचन्त। सांसदाः राष्ट्रपतिना पुनर्विचाराय प्रेषितानि सूत्राणि सहमतेः आधारेण संशोधयितव्यानीति अवदन्। सत्तापक्षस्य सांसदाः नागरिकता विधेयकम् राजनीतिक विषयो न निर्मातव्य इति धारणाम् उपस्थापयन्। सत्तापक्षस्य सांसदाः प्रावोचन् नागरिकतायाः वञ्चितान् नेपालिनो योजयितुम् एतस्य विधेयकस्य पारितीकरणस्य विकल्पो न विद्यते। तत्पूर्वम् उपवेशे प्रधानमन्त्रिणः सर्वदेवाभिधस्य पक्षतो गृहमन्त्री बालकृष्ण खाण राष्ट्रिय महिलायोगस्य आर्थिक वर्षद्वय पूर्वस्य 14 वार्षिक प्रतिवेदनम् प्रस्तौत। उपवेशे सभामुखः अग्निप्रसाद सापकोटा प्रतिनिधि सभायाः 10 अनुपस्थितानां सांसदानाम् अनुपस्थितेः सूचनाम् सभायाम् प्रस्तौत। सभायाः अपरोपवेशः परश्व भाद्रस्य 5 दिवसे रविवासरे पूर्वाह्नस्य 11 वस्ता। अद्य श्रीकृष्ण जन्माष्टमी पर्व अशेष हिन्दू धर्मावलम्बिभिः भगवतः श्रीकृष्णस्य पूजाराधने सम्पाद्य समायोज्यमानं विद्यते। उपलक्ष्येऽस्मिन् विभिन्नेषु कृष्णमन्दिरेषु लक्ष्मीनारायण मन्दिरेषु च श्रद्धालवो भक्तजनाः भगवतः श्रीकृष्णस्य दर्शन पूजनार्थं प्रातःकालादेव उपतिष्ठन्ते। विशेषतो राजधान्याः निकटवर्तिनी ललितपुरस्य श्रीकृष्णमन्दिरे भगवतः श्रीकृष्णस्य दर्शन पूजन स्तोत्र पाठान कर्तुं पारे सहस्रं नराः नार्यश्च सश्रद्धं सम्मिलिताः भवन्ति। असुर प्रकृतिकानां कंस मागदादीनां क्रूर शासकानाम् अत्याचारात् सज्जनान् संरक्षितुं देवद्विज मुनि सिद्धानां प्रार्थनां स्वीकृत्य भाद्रकृष्णाष्टम्याः रात्रौ गोलोक निवासी भगवान् राधारमणः मथुरायाः कारागृहे देवकी वसुदेवयोः पुत्ररत्नत्वेन अवातरत् इति मान्यतामाश्रित्य कृष्णस्तु भगवान् स्वयमिति भागवतीय वचनं निभाल्य च संसाराभिधानात् सततं जागरूकान् दुःखदावानल दाहात् मुक्तिम् अभिलाषुकाः श्रद्धालवः व्रतोपवास भजन कीर्तनादि माध्यमेन सकल जीव निकायावासं श्रीनिवासम् अमुं स्मरन्ति पूजयन्ति च। अवसरेऽस्मिन् धार्मिक संघ संस्थाः श्रीकृष्णस्य श्रीविग्रहं सज्जीकृत्य शंख घण्ट मृदङ्गान् संवाद्य जयघोषपूर्वकं रथयात्रां प्रस्तुवन्ति। देशस्य इतरभागेष्वपि अद्य रथयात्रोत्सवाः आयोज्यन्ते यत्र बालवृद्ध महिला युवानः सहभागिनो भवन्ति। अस्मिन् क्रमे स्थाने स्थाने भगवतो लीला विलसितानि चित्राणि च प्रदर्श्यन्ते। असत्योपरि सत्यस्य अन्यायोपरि न्यायस्य च विजय प्रतीकस्य रूपेण इदं पर्व समाजे समादृतमस्ति। श्रीकृष्णस्य मुखारविन्दान् निस्त्रितम् निष्काम कर्म प्रतिपादकम् गीता दर्शनम् मानव जीवने सुख शान्ति सुव्यवस्था स्थापयितुम् महत्वपूर्णम् मन्यते। उपलक्ष्यस्मिन् राष्ट्रपतिना विद्यादेवी भण्डारिणा प्रदत्ते शुभकामना सन्देशे श्रीकृष्ण जन्माष्टम्याः गोकुलाष्टम्याः वा नाम्ना परिचितस्य एतस्य पर्वणः धार्मिक सांस्कृतिक दार्शनिकाः आयमाः सन्ति। धार्मिकदृष्टौ भगवान् श्रीकृष्णः सत्प्रवृत्तेः साधकः आसुरी प्रवृत्तेः विनाशकश्च भगवतः विष्णोः अवतारश्च मन्यते इत्युल्लिखितं वर्तते। राष्ट्रपतिना सन्देशे सम्पूर्ण विश्वं कर्मयोगे सक्रियं भवितुं प्रेरणा प्रदानपूर्वकं काम क्रोध लोभ मोहान् परित्यज्य समाजे सद्भाव स्थापनार्थं उत्प्रेरकेण गीताज्ञानेन अस्माकं कृते सुकर्मणे युगैः नैरन्तर्येण मार्गदर्शनं विद्यमानमस्तीति उल्लिखितं वर्तते। प्रधानमन्त्रिणा प्रदत्ते सन्देशे पर्वेदं सम्पूर्ण नेपालीषु परस्परं सद्भाव भातृत्व मैत्रीभावनाः अभिवर्ध्य सुसंस्कृत समाज निर्माणाय प्रेरयतु इति कामना विहितास्ति। प्रधानमन्त्रिणः सन्देशे गीतायां भगवता श्रीकृष्णेन एव योगं दर्शनं च विविच्य मानवजात्यैः तथा उपलब्ध पक्ष महत्वपूर्णोऽस्ति एतत् दिवसेऽस्मिन् विशेषेण स्मर्यते इत्युल्लिखितं वर्तते। समेषां हिन्दुधर्मावलम्बीनाम् आराध्य देवस्य भगवता श्रीकृष्ण शिक्षा सन्देशाश्च निखिल मानव समुदायस्य कृते नितराम् उपयोगिनः सारगर्भिताश्च सन्तीति च प्रधानमन्त्रिणा सन्देशे उल्लिखितमस्ति। प्रधानमन्त्रिणा शेरबहादुर देउवाभिधेन सह लोसपा नाम्नो लोकतान्त्रिक समाजवादी दलस्य नेतारः सत्ता घटबन्धने सहभागितायाः सामयिक राजनीतिश्च विषययोः ह्यो व्यमृशन्। बालुवाटारा वर्तिनी प्रधानमन्त्री निवासे सम्पन्नायां मेलवार्तायां स्वेषां मध्ये सत्ता घटबन्धनेन सहभागितायाः आगामी निर्वाचने नैर्वाचनिक समन्वयस्य सामयिक राजनीतेश्च विषयेषु विमृष्टमिति लोसपा दलस्य वरिष्ठ नेता राजेन्द्र महतो अज्ञापयत्। वरिष्ठ नेता महतो सत्ता सहकार्यस्य नैर्वाचनिक समन्वयस्य च विषययोः प्रधानमन्त्रिणा देउवाभिधेन सह अनुकूल वार्ता विहितेति अगदत्। वरिष्ठ नेता महतो दलेन मुख्य विषयत्वेन उत्थाप्यमानं नागरिकता विधेयकम् अग्रे वर्धितम् अस्तीति हेतोः पञ्चदलीय घटबन्धनेन निर्णीते सति सत्ता सहकार्याय आत्मनाम तत्परता स्थिति अब्रवीत। प्रधानमन्त्री शेरबहादुर देउवा वदति राष्ट्रे एव उत्पादितानां खाद्यवस्तूनामपि आयातस्य अवस्थायाः सर्जनं चिन्तायाः विषयो वर्तते। राष्ट्रिय सुरक्षा परिषदः सचिवालयस्य नेपाली सेनायाः प्रबन्धरति विभागस्य च आयोजनायां नेपाले खाद्य सुरक्षाया अवस्था इति विषयिण्यः द्विदिवसीयायाः संगोष्ठ्याः ह्यः सम्पन्ने समापन समारोहे प्रधानमन्त्री देउवा अवदत् राष्ट्रे एव पर्याप्त मात्रायां खाद्योत्पादनस्य प्रशस्त सम्भावना सत्यपि क्षमतायाः पूर्ण सदुपयोगः सम्भूतो नास्ति। प्रधानमन्त्री देउवा अकथयत् राष्ट्रस्य अभ्यन्तरे एव पर्याप्त मात्रायां खाद्यान्नम् उत्पाद्य खाद्ये सर्वेषाम् उपागमनम् आन्तरखाद्यस्य याचनायाः स्वदेशे एव पूर्तये प्रेरणा ग्रहणं च आवश्यके स्तः। प्रधानमन्त्री शेरबहादुर देउवा निगदति मैलोद्योमा शीलतां प्रवर्ध्य स्वदेशे एव वृत्त्युपार्जनस्य वर्धनाय सर्वकारः सहयोगं विददाति। ह्यो मैलोद्यमी महासंघस्य कार्यक्रमे प्रधानमन्त्री देउवा महिलाः स्ववृत्त्युपार्जनक्षमः विदाय अर्थतन्त्रं सबलीकर्तुं बलं प्रादात्। नेकपा माओवादी केन्द्रस्य अध्यक्षा पुष्पकमला दाहाल प्रचण्डः वदति नेपालस्य वामान्दोलनस्य एकीकरण प्रक्रिया अग्रे वर्धिता वर्तते। हुतात्मनो रामवृक्ष यादवस्य अष्टाविंशस्य स्मृति दिवसस्य अवसरे पेरिस डाँडा स्थिते दलस्य केन्द्रीय कार्यालये ह्य आयोजिते कार्यक्रमे अध्यक्ष प्रचण्डः समाजवादस्य यात्रायाः सफलतायै सर्वेषां वामदलानाम् एकत्र संस्थितेः विकल्पो नास्तीति समस्पष्टयत्। नेकपा एमाले दलस्य अध्यक्ष केपी शर्मा ओली आसन्न संसदीय निर्वाचने स्वदलं केनापि सह गठबन्धनं न विदधातीति कथयति। झापा जनपदस्य चन्द्रगढ़ी विमानस्थले ह्य संचारकर्मी सह अध्यक्ष ओली अगदत् नेकपा एमाले दलाय निर्वाचने प्रतिस्पर्धनार्थं केनापि सह गठबन्धनकरणम् आवश्यकं नास्ति। अध्यक्ष ओली सत्तादलानां गठबन्धनं संकेतयन् एतद् विचार सिद्धान्तयो असंगतानां दलानां गठबन्धनम् अस्ति इति आरोपयत्। इति समाचाराः।